अथ एकविंशः पाठः नवमः खण्डः। अस्ति कस्मिंश्चित् जलाशये कम्बुग्रीवो नाम कच्छपः, तस्य च सङ्कटविकटनाम्नी मित्रे हंसजातीये परमस्नेहमाश्रिते नित्यमेव सरस्तीरमासाद्य तेन सहानेकदेवर्षिमहर्षीणां कथाः कृत्वास्तमयवेलायां स्वनीडसंशयं कुरुतः। अथ गच्छता कालेनावृष्टिवशात् सरः शनैः शनैः शोषम् अगमत्। ततस्तद्दुःखदुःखितौ तावूचतुः भो मित्र जम्बालशेषमेतत्सरः सञ्जातम्, तत् कथं भवान् भविष्यतीति व्याकुलत्वं नो हृदि वर्तते। तच्छ्रुत्वा कम्बुग्रीव आह भोः साम्प्रतं नास्त्यस्माकं जीवितव्यं जलाभावात्, तथापि उपायश्चिन्त्यतामिति उक्तं च त्याज्यं न धैर्यं विधुरेऽपि काले धैर्यात् कदाचित् गतिमाप्नुयात् सः, यथा समुद्रेऽपि च पोतभङ्गे संयात्रिको वाञ्छति कर्तुमेव। अपरं च मित्रार्थे बन्धवार्थे च बुद्धिमान् यतते सदा, जातास्वापत्सु यत्नेन जगादेदं वचो मनुः। तदानीयतां काचिद्दृढरजुर्लघुकाष्ठं वा अन्विष्यतां च प्रभूतजलसनाथं सरः, येन मया मध्यप्रदेशे दन्तैर्गृहीते सति युवां कोटिभागयोस्तत्काष्ठं मया सहितं सङ्गृह्य तत्सरो नयथ। तावूचतुः भोमित्र एवं करिष्यावः, परं भवता मौनव्रतेन स्थातव्यम्, नो चेत् तव काष्ठात् पातो भविष्यति। तथानुष्ठिते गच्छता कम्बुग्रीवेणाधो भागव्यवस्थितं किञ्चित् पुरमालोकितम्। तत्र ये पौरास्ते तथा नीयमानं विलोक्य सविस्मयमिदमूचुः, अहो चक्राकारं किमपि पक्षिभ्यां नीयते, पश्यत पश्यत। अथ तेषां कोलाहलमाकर्ण्य कम्बुग्रीव आह भोः किमेष कोलाहलः इति वक्तुमना अर्धोक्ते पतितः पौरैः खण्डशः कृतश्च। अतोऽहं ब्रवीमि सुहृदां हितकामानामिति, तथा च अनागत विधाता च प्रत्युत्पन्नमतिस्तथा द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति।